श्रोतारः आकाशवाण्याः सुविशिष्टायाः श्रव्यसंस्कृतपत्रिकायाः संस्कृतसाप्ताहिक्याः अभिनवेऽस्मिन् अङ्के भवतां समेषां हार्दिकं स्वागतम् अभिनन्दनं च। भवतां सहृदयानां मनोविनोदकरम् अङ्कम् आदाय पुनरेकदा उपस्थितोऽस्मि अहं दिव्यानन्दझाः। अयि सुधियः श्रोतारः, जानीमः वयं यत् पृथिव्यां विद्यमानेषु त्रिषु रत्नेषु अन्यतमं सुभाषितं विलसति। अद्य एतादृशमेव सुभाषितरत्नमेकम् आदाय उपस्थितास्ति मम सहयोगिनी निधि तिवारी। तर्हि श्रूयतां भवद्भिः।
विदेशेषु धनं विद्या, व्यसनेषु धनं मतिः, परलोके धनं धर्मः, शीलं सर्वत्र वैधनम्।
मित्राणि, सम्प्रति अग्रेसरामः प्रसङ्गप्रभागं प्रति। प्रभागेऽस्मिन् अद्य भावपूर्णं स्तवनं विदधाति अस्मदीयः सहयोगी नरेन्द्रदत्तसेमवालः।
प्रातः स्मरामि रघुनाथमुखारविन्दम्, मन्दस्मितं मधुरभाषि विशालभालम्, कर्णावलम्बिचलकुण्डलशोभिगण्डम्, कर्णान्तदीर्घनयनम् नयनाभिरामम्।
अयि जागरूकाः श्रोतारः, सम्प्रति साप्ताहिकी वार्ता प्रभागे प्रस्तूयते साप्ताहिकः वैश्विकः वृत्तान्तः। अद्य अशेष जगतः साप्ताहिकीः वार्ताः आदाय उपस्थितास्ति सुषमा कुमारी।
बिहार राज्ये नीतीश कुमारस्य नेतृत्वयुते प्रशासने भाजपा दलस्य 7 विधायकाः मन्त्रिमण्डले समाविष्टाः। विश्वस्य बृहत्तमः आध्यात्मिक समागमः महाकुम्भः महाशिवरात्रि पर्वणि सुसम्पन्नः। प्रशासनेन राष्ट्रिय खेल महासंघेषु वित्तीय सहायता प्रदान करणस्य मानदण्डानां संशोधन करण दिशि 6 सदस्यात्मिका समितिरेका संरचिता। ऑस्ट्रेलिया देशेन भारत देशेन साकं व्यापार विनिवेश सम्बन्धान् सुदृढीकर्तुं विस्तृत प्रारूपः सुसज्जीकृतः। सूडान देशे सैन्य विमान दुर्घटनाग्रस्तं सञ्जातम्, अत्र 46 जनाः मृत्युमुपगताः।
अयमान्याः श्रोतारः, अद्य ज्ञान विज्ञानाख्ये साक्षात्कार प्रभागे अस्माभिः साकं संवादाय उपस्थिताः विद्यन्ते काशी गौरव सम्मानादि सभाजिताः प्रथिताः संस्कृत विद्वांसः प्रोफेसर शरदिन्दु कुमार त्रिपाठी महाभागाः। सम्प्रति अस्मदीय सहयोगिन्या निधि तिवारिणा साधितेन संवाद माध्यमेन जानीमः भारतीय ज्ञान विज्ञान प्रवाहं प्रति आचार्यवराणां विचारान्।
प्रियाः मे श्रोतारः, संस्कृत साप्ताहिकीति कार्यक्रमस्य ज्ञान विज्ञान प्रभागे अद्य मया सह उपस्थिताः वर्तन्ते काशी हिन्दू विश्वविद्यालये कलासंकाये संस्कृत विभागे अध्यापनरताः प्रख्यात विद्वांसः काशी गौरव सम्मानेन च सम्मानिताः प्रोफेसर शरदिन्दु कुमार त्रिपाठी महाभागाः। स्वागतमस्ति अत्र भवताम्, नमो नमः।
स्वागतम् व्याहरामि अस्मिन् कार्यक्रमे सर्वेषां श्रोतृवर्याणां, सम्पादकानाम्, आयोजकानां, यद् मया अयम् अवसरः प्राप्तः अद्य किञ्चित् भवद्भिः साकं संस्कृतविषयिणीं चर्चाम् अत्र उपस्थापयितुम्।
अस्तु महोदय, तावत् प्रथमः प्रश्नोऽयं विद्यते यत् संस्कृतस्य वर्धमानां स्थितिं भवान् कथम् अवलोकयति, यतोहि साम्प्रतिके समये नैके जनाः संस्कृतं प्रति स्वरुचिं प्रदर्शयन्ति इति, कृपया प्रतिपादयन्तु।
सम्यक् पृष्टं भवत्या। यः प्रश्नः भवत्या पृष्टः यत् अधुना संस्कृतं प्रति जनानाम् अभिरुचिः वर्धते, अत्यन्तमिदं सुखावहम्। यतोहि विचारितां भारतीयं समग्रमपि यत्किमपि प्राचीनं वर्तते, भारतस्य गौरवभूतं यत्किमपि अस्ति, तत्सर्वमपि संस्कृते एव निहितं वर्तते। विचार्यतां राष्ट्रीय शिक्षा नीतौ एकं विशिष्टं तत्र पदं योजितं भारतीय ज्ञान परंपरा इति। इमं विषयम् आश्रित्य अधुना बहुत्र शोधकार्यं प्रचलति, बहूनि व्याख्यानानि भवन्ति, विश्वविद्यालयेषु अयम् एकः विभागः स्थाप्यते। अधुना तु UGC द्वारा तदर्थं PDF अपि निःसृतमस्ति। एवं कृत्वा भारतीय ज्ञान परंपरायाः उपरि राष्ट्रीय शिक्षा नीतौ विशिष्टं बलं दत्तमस्ति। अनेन एव कारणेन बहूनां जनानां अधुना संस्कृतं प्रति रुचि वर्धते, यतः अस्माकं यत् गौरवभूतं साहित्यमस्ति न, तत् सर्वं तु संस्कृते एव अस्ति। तेन जनाः वाञ्छन्ति यत् संस्कृतं पठित्वा अस्माभिः काचित् जीविका प्राप्येत। मुख्यरूपेण जनानां बालकानां अद्यतनी या पीढ़ी वर्तते तस्याः अयं स्वभावः, यतोहि शिक्षा अर्थकरी भवेत्। तर्हि अधुना संस्कृतस्य सर्वेषु विश्वविद्यालयेषु, सर्वेषु महाविश्वविद्यालयेषु, अत्र बहुविषु संस्थासु एवं च याः व्यक्तिगत रूपेण संस्थाः सन्ति तास्वपि संस्थासु संस्कृतम् आश्रित्य बहूनि कार्याणि भवन्ति, शोधकार्याणि भवन्ति। अधुना संस्कृतशिक्षणाय बह्व्यः कक्षाः सञ्चाल्यन्ते, अतः जनानाम् इयं रुचिः स्वाभाविकी एव। अपि च राजाकालस्य कारणम् इति उक्तम्, अस्माकं माननीयेन प्रधानमन्त्रिणा स्वयम् उद्घोषितमस्ति, अपि च सर्वत्र चर्चा अपि भवति यत् संस्कृते एव अस्माकं सर्वं गौरवभूतं साहित्यं वर्तते, अस्माकं सर्वं मानवीयमूल्यसहितं साहित्यं संस्कृते एव वर्तते। अतः बहवः अभिभावकाः स्वीयान् पुत्रान् स्वीयान् छात्रान् वाञ्छन्ति यत् अस्माकं पुत्रः अस्माकं छात्रः भारतीय शिक्षां ज्ञात्वा, भारतीयां परम्परां ज्ञात्वा, भारतीयां संस्कृतिं ज्ञात्वा भारतस्य एकः सभ्यः नागरिकः भवेत्। तदर्थं संस्कृतम् अतिरिच्य कश्चन पन्था नास्ति। अनेन प्रकारेण अनया धिया सर्वेषाम् अभिभावकानां रुचिः वर्तते इति अस्माकं कृते अत्यन्तं सुखावहमस्ति, यत् अनेन प्रकारेण जनाः एतत् सर्वं ज्ञात्वा भारतीयसंस्कृतेः संस्कृतसाहित्यस्य संरक्षणे, संवर्धने, तस्य पोषणे च दत्तावधानाः भविष्यन्ति इति अस्माकं सुदृढः विश्वासः वर्तते।
शोभनं प्रतिपादितं भवता। महोदय, यथा भारतस्य लोकतन्त्रमन्दिरे संस्कृतभाषायाः वरिवर्धमाना स्थितिः जायते, यतोहि सांसदैः संस्कृतभाषायाः उन्नयनाय कार्यं तत्र विधीयते, अपि च भाषान्तरणकार्यमपि तत्र संस्कृतभाषायामपि प्रचलति, तावत् स्वविचारम् अस्मिन् विषये प्रकटयन्तु कृपया। तावत् कीदृशीः स्थितिः वर्तते?
निधि, मम आश्चर्यं भवति यत् या भाषा भारतीयसंस्कृतेः संवाहिका स्यात्, या भाषा भारतीयपरम्परायाः संवाहिका भवेत्, या भाषा कदाचित् भारतस्य जनभाषा भवेत्, तस्याः भाषायाः विरोधिनोपि दृश्यन्ते अस्मिन् राष्ट्रे इति अपि एकम् आश्चर्यजनकं वाक्यं मन्तुं शक्यते। अस्तु, सर्वं कालस्य लीलायितं, कालः लीलां कुरुते, तत्र किञ्चित् शुभं भवति, किञ्चित् च अशुभं भवति। यदा शुभे कार्ये अनेकाः बाधाः आयान्ति, तासां बाधानां निराकरणं भवति। तद्दिनं स्मर्यते यस्मिन् दिने अस्माकं संसद्भवने एतत् सर्वं जायमानम् आसीत्। अस्माकं लोकसभाध्यक्षेण माननीयेन बिर्लामहोदयेन तथा कथितं, भवान् कुत्र निवसति, इदं भारतराष्ट्रं, संस्कृतम् अस्य राष्ट्रस्य प्राचीना भाषा, तर्हि तस्यां भाषायां यदि संसद् गतिविधीनां प्रसारणं भवति चेत् सम्पूर्णं राष्ट्रम् एतस्य निर्णयस्य स्वागतं व्याहरति, अभिनन्दनं करोति, आशां च करोति यत् एवं विधाः कार्यक्रमाः, ये कार्यक्रमाः भारतीयसंस्कृतेः भारतराष्ट्रस्य गौरववर्धकाः भवन्ति, तेषाम् अनुष्ठानम् अवश्यं विधीयेत सर्वकारः अस्माकं अस्मिन् विषये ध्यानं ददाति एवं विधान कार्यक्रमान् एवं विधाः गतिविधयः एवं विधाः गतिविधिः सर्वकारेण योज्यते एतत् सर्वमपि अस्माकं कृते अत्यन्तं सुखावहं वर्तते सम्पूर्णं संस्कृतजगत् सर्वकारस्य एतस्य निर्णयस्य हृदयेन अभिनन्दनं करोति स्वागतं व्याहरति आशां च करोति यत् अग्रेपि एवं विधाः कार्यक्रमः सर्वकारेण नूनं विनिश्च्य नियोजयिष्यन्ति एवं विधाः कार्यक्रमः अत्र अस्माकम् अयमेव विचारः अस्माकम् इयमेव आकाङ्क्षा वर्तते इति
समीचीनं प्रतिपादितं भवता महोदय यथा वयं जानीमः यत् समसामयिकप्रसङ्गे यत्र एकतः तु विभिन्नदेशाः युद्धरताः वर्तन्ते तावत् वैश्विककल्याणे राष्ट्रियैकतायां च संस्कृतस्य कीदृशी भूमिका अवलोक्यते भवता कृपया कथयन्तु
सम्यक् पृष्टं भवत्या एवमस्ति यत् सम्पूर्णं भारतं यदि राष्ट्रैक्यस्य सूत्रे काचित् भाषा निबध्नाति चेत् सा भाषा संस्कृतमेव किं कारणं यत् संस्कृतभाषा भारतीयानां सर्वासां भाषाणां जननी अस्ति सर्वाः भाषाः संस्कृतेन उद्भूताः अथवा प्रभाविताः सन्ति अतः संस्कृत अपि च सम्पूर्णस्यापि भारतस्य यत्किमपि साहित्यं वर्तते यत्किमपि गौरवभूतं यत्किमपि पौरोहित्यं यत्किमपि अस्ति तत् संस्कृते एव वर्तते सम्पूर्णभारतीयानां यानि धर्मानुष्ठानानि भवन्ति तानि सर्वाणि अपि संस्कृतमाध्यमेनैव सम्पादितानि भवन्ति अतः सम्पूर्णं भारतं राष्ट्रैकसूत्रे निबध्नाति इयं संस्कृतभाषा अस्माभिः कुम्भमेलादिषु दृश्यते यद् भिन्नभाषाभाषिणः तत्र जनाः आगच्छन्ति सम्पूर्णभारतात् जनाः अत्र समवेताः भवन्ति परन्तु एकः एव कश्चन संस्कृतज्ञः पण्डितः सर्वेषां विभिन्नभाषाभाषिणां धर्मानुष्ठानानि सम्पादयति तेन च सर्वे समानरूपेण सन्तुष्टाः भवन्ति इति स अपि च सम्पूर्णे भारते ये संस्काराः भवन्ति कामं यज्ञोपवीतसंस्कारः भवेत् विवाहसंस्कारः भवेत् अन्नप्राशनसंस्कारः भवेत् अन्त्येष्टिसंस्कारः वा भवेत् यत् संस्काररूपेण अधुना यत् किमपि क्वचित् कार्यते तस्य सर्वस्यापि सम्पादनाय या भाषा अस्ति सा तु संस्कृतमेव तत्र कश्चन विरोधः नास्ति अतः अद्यापि सम्पूर्णं भारतं यदि एकसूत्रे निबधनस्य यदि कस्याश्चित् भाषायाः सामर्थ्यं वर्तते चेत् सा भाषा संस्कृतम् एव विचार्यताम् एकः कश्चन पण्डितः एकत्र उपविश्य एकेन श्लोकेन एकस्मिन् कलसे भारतस्य सर्वाः नदीः आह्वयति गङ्गे च यमुने चैव गोदावरी सरस्वती नर्मदे सिन्धु कावेरी जलेस्मिन् सन्निधिं कुरु सः वदति सम्पूर्णं भारतम् आकारयति अयं श्लोकः न केवलम् अत्र पठ्यते दक्षिणभारतेपि अथवा अन्येषु अपि राज्येषु यः कश्चन पण्डितः भवति सः इममेव पद्यं पठति इमं श्लोकं पठति सः सम्पूर्णभारतात् सर्वाः नदीः आकारयति किम् इदं दृश्यं राष्ट्रिकतायाः नास्ति अतः अपि च दक्षिणभारते कश्चन दार्शनिकः जन्म गृह्णाति उत्तरभारते तस्य गृहे गृहे चर्चा भवति तस्य प्रत्येकं विद्यालये तस्य ग्रन्थानाम् अध्ययनं भवति अपि च कालिदासमाश्रित्य सम्पूर्णे भारते चर्चा भवति जनाः पठन्ति स्वापिम् अत्यन्तं निष्ठापूर्वकम् एतदपि संस्कृतं सम्पूर्णं भारतम् एकतायाः सूत्रे निबध्नाति इति वक्तुं शक्यते एवं विधानि अनेकानि सन्ति उदाहरणानि यानि विलोक्य अस्माभिः निस्सन्देहं वक्तुं शक्यते यत् राष्ट्रस्य एकता सम्पादनाय यदि काचित् भाषा वर्तते चेत् सा भाषा संस्कृतम् एव
अस्तु गुरुवर्याः भवद्भिः प्रदत्त समयाय अनुगृहीतास्मि धन्यवादाञ्च व्याहरामि नमो नमः
कार्तज्ञं विज्ञापयामि भवतः सर्वान् प्रति यत् भवन्तः माम् अत्र अकारितवन्तः मया किञ्चित् अत्र उपस्थापितं किञ्चित् वार्तालापः भवद्भिः सह कृतः धन्यवादारः सर्वान् पुनः नमामि प्रणमामि च।
अयि संस्कृतप्रेमिणः आगच्छन्तु संस्कृतदिग्दर्शिनी प्रभागे, यत्र विश्वस्मिन् अपि विश्वे संस्कृतसंवर्धनाय अनुष्ठितानां कार्यक्रमाणां विषये सविस्तरं संसूचयति अस्मदीयः सहयोगी पुरुषोत्तमशर्मा।
श्रीलालबहादुरशास्त्री केन्द्रीयसंस्कृतविश्वविद्यालयेन सप्तदिवसीया राष्ट्रिया पाण्डुलिपिविज्ञान लिपिविज्ञानकार्यशाला समायोजिता। इयं कार्यशाला गुरुवासरे फेब्रुवरी 27 पूर्णतां गता। राजधान्यां नवदिल्ल्यां श्रीशङ्कर शिक्षायतन वैदिकशोधसंस्थानेन शुक्रवासरे राष्ट्रिया सङ्गोष्ठी आयोजिता। अस्यां सङ्गोष्ठ्यां विद्वद्भिः कादम्बिनी मासिकाध्याय विमर्शो विहितः। महर्षि सान्दीपनि राष्ट्रिय वेद विद्या प्रतिष्ठान द्वारा ज्ञान प्रवाहस्य श्री पट्टाभिराम शास्त्री वेद मीमांसानुसंधान केन्द्रस्य च संयुक्त तत्वावधाने त्रिदिवसीया राष्ट्रिया संगोष्ठी समायोजिता। अस्याम संगोष्ठ्यां वेदोपांग नव्यन्याय शास्त्रम् इति विषयम् आश्रित्य विद्वद्भिः सम्मर्शो विहितः।
अयि सहृदयाः श्रोतारः, अद्य बालमनोवल्लरी प्रभागे शृणुमः रुचिकराम् एकां बालकथाम्, तां च प्रस्तौति निधिझाः।
प्रियाः बालाः, अद्य अहम् एकां कथां श्रावयामि। कथायाः शीर्षकः अस्ति व्यर्थः मूर्खोपदेशः। कश्चन तमालवृक्षः आसीत्। तस्य वृक्षस्य शाखायाम् एकः नीडः आसीत्। तत्र कश्चन चटकः पत्न्या सह वसति स्म। कदाचित् वर्षाकालः आगतः। बहिः सर्वत्र शीतलं वातावरणम् आसीत्। नीडे तु औषण्यम् आसीत्। अतः चटकः निरातङ्कः आसीत्। तदा कश्चन वानरः तत्र आगतवान्। वृष्ट्या तस्य शरीरं क्लिन्नम् आसीत्। शैत्येन सह कम्पते स्म। सः वानरः दन्तवीणां वादयन् वृक्षम् आरुह्य उपविष्टवान्। तं दृष्ट्वा चटका उक्तवती, किं भोः, भवतः हस्तपादसहितं सुदृढं शरीरमस्ति, तथापि एकं गृहं निर्माय तत्र वासं कर्तुं भवान् किं न शक्नोति? किमर्थम् एवं शीतपीडाम् अनुभवति भवान्? तत् श्रुत्वा वानरः उक्तवान्, रे अधमे, किमर्थं मौनेन न तिष्ठति भवती? मम विषये भवती किमर्थं चिन्तयति इति? परन्तु चटका मौनेन न स्थितवती, पुनः तथैव उपदेशम् आरब्धवती। तदा वानरस्य महान् कोपः आगतः। सः तां शाखाम् आरुह्य चटकायाः नीडं शतधा खण्डशः कृतवान्। एवं मूर्खम् उद्दिश्य उपदेशेन चटकायाः नीडः एव नष्टः अभवत्। धन्यवादाः।
मान्याः श्रोतारः, अग्रिमः प्रभागोऽस्ति एकं भारतं श्रेष्ठं भारतम् इति, यत्र मम सहयोगिनी मुदिता वेतालः प्रस्तौति राष्ट्रियैक्यद्योतकं त्रिभाषा संगमम्।
प्रथमं वाक्यमस्ति, महाकवि कालिदासः न केवलं भारतस्य प्रत्युत विश्वस्य श्रेष्ठ कविः अस्ति। पहला वाक्य है, महाकवि कालिदास न केवल भारत के अपितु विश्व के श्रेष्ठ कवि हैं। मगही में महाकवि कालिदास न केवल भारत के अपितु विश्व के श्रेष्ठ कवि हलथिन। द्वितीयं वाक्यमस्ति, महाकवि कालिदासस्य प्रतिभा सर्वतोमुखी अस्ति। दूसरा वाक्य है, महाकवि कालिदास की प्रतिभा सर्वतोमुखी है। मगही में महाकवि कालिदास के प्रतिभा सर्वतोमुखी हले। तृतीयं वाक्यमस्ति, संस्कृत साहित्ये अयं महाकविः अद्वितीय स्थानं धारयति। तीसरा वाक्य है, संस्कृत साहित्य में महाकवि कालिदास का अद्वितीय स्थान है। मगही में संस्कृत साहित्य में महाकवि कालिदास के अद्वितीय स्थान है।
प्रियाः श्रोतारः, भवद्भिः सह संवाद प्रवर्तनस्य प्रत्यावर्तन वेला सम्प्रति समापन्ना। संस्कृत साप्ताहिकीति कार्यक्रम विषये भवन्तः स्वकीयान् उद्गारान् प्रकाशयितुम् अर्हन्ति। एतदर्थम् अस्माकम् ईमेल संकेतः अस्ति nsdsanskrit@gmail.com। अग्रिमे सप्ताहे अस्मिन्नेव काले अभिनवम् एकम् अंकम् आदाय पुनः उपस्थास्यामहे। भवेत् तावत् मंगलम्।